सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा अथवा विद्यया विद्या चतुर्थो नोपलभ्यते। इत्युक्ते पूर्वस्मिन् काले विद्यार्जनाय त्रयः मार्गाः आसन्। ते के इत्युक्ते गुरुशुश्रूषया विद्या, इत्युक्ते गुरुसेवया छात्राः विद्यां प्राप्तुं शक्नुवन्ति स्म। सः प्रथममार्गः, प्रथमः मार्गः। द्वितीयमार्गः कः इत्युक्ते अत्र पुष्कलेन धनेन वा इत्युक्ते पर्याप्तम् अथवा यथेष्टं धनं दत्त्वा धनिकाः विद्यां प्राप्तवन्तः। अपि च तृतीयः मार्गः अपि अस्ति, सः कः इत्युक्ते विद्यया विद्या। एकस्याः विद्यायाः विनिमयेन अन्या विद्या प्राप्यते। अत्र विनिमयः इत्युक्ते एक्स्चेञ्ज्, विनिमयेन अन्या विद्या प्राप्यते। परन्तु अत्र सुभाषितकारः वदति चतुर्थः मार्गः नास्ति इति सः उक्तवान्। परन्तु अहं चिन्तयामि इदानीन्तनकाले विद्यार्जनाय चतुर्थः मार्गः अपि अस्ति। वयं सर्वे अत्र अन्तर्जालमाध्यमेन अथवा दूरवाण्या अत्र स्थित्वा संस्कृतभाषायाः अध्ययनं कुर्वन्तः सन्ति, कुर्वन्तः स्मः। इत्युक्ते अत्र गुरुशुश्रूषायाः आवश्यकता नास्ति, यथेष्टं धनं दातव्यं तस्य आवश्यकता अपि नास्ति। केवलं श्रद्धां विना किमपि न आवश्यकम्। अतः वयं सर्वे अत्र मिलित्वा पुनः एकवारं संस्कृतभाषायाः अध्ययनार्थं किञ्चित् प्रयत्नं कुर्मः, श्रद्धया प्रयत्नं कुर्मः। किमर्थं चेत् भगवद्गीतायां भगवान् श्रीकृष्णः वदति श्रद्धावान् लभते ज्ञानं, इत्युक्ते श्रद्धावान् ज्ञानं लभते। अतः वयमत्र सर्वे मिलित्वा भाषायाः अध्ययनं कुर्मः, उत्तमम्। अनन्तरम् अत्र गते सप्ताहे वयं यदि तर्हि इति पदयुगलम् अथवा पदद्वयं दृष्टवन्तः। अत्र यदि तर्हि इति पदद्वयं स्थितिं सूचयति, इत्युक्ते स्थितिः का, अत्र कारणं किम् अपि च कार्यं किं, कार्यकारणसम्बन्धः इति वदामः। इत्युक्ते अत्र यदि विद्युत् अस्ति तर्हि दीपः ज्वलति इति वाक्यमस्ति। तत्र कारणमस्ति अपि च कार्यमपि अस्ति। इत्युक्ते अत्र अनयोः द्वयोः पदयोः योजनेन वाक्यद्वयस्य मेलनं कृत्वा एकमेव वाक्यं रचयितुं शक्नुमः। तत् एकः विषयः। अपि च यदि तर्हि इति पदद्वयम् अव्ययम्, यदि इति पदम् अथवा अपि च तर्हि इति पदद्वयम् अव्ययम् इति वदामः। अव्ययम् इत्युक्ते किम्? इत्युक्ते अव्ययम् इत्युक्ते तस्य लिङ्गपरिवर्तनं न कदापि भवति, इत्युक्ते अव्ययपदानां लिङ्गवचनविभक्तयः न सन्ति। अव्ययपदानि सर्वदा यथावत् तिष्ठन्ति, तेषां परिवर्तनं न कदापि भवति। तदर्थमेव एकः श्लोकः अस्ति अव्ययम् इत्युक्ते किम् इत्यस्मिन् विषये। अव्ययं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्नव्येति तदव्ययम् इति श्लोकः। अपि च यदि तर्हि इति पदद्वयस्य योजनेन एकमेव वाक्यं रचयितुं शक्नुमः। अपि च वाक्यं भूतकाले अथवा भविष्यत्काले अथवा वर्तमानकाले अपि भवितुमर्हति, इत्युक्ते तत्र कालस्य प्रसक्तिः नास्ति। वाक्यं भूतकाले अपि भवितुमर्हति, वर्तमानकाले अथवा भविष्यत्काले अपि वाक्यं रचयितुं शक्नुमः इति यदि तर्हि इत्यस्मिन् विषये किञ्चित् वार्ता अस्ति. अपि च गते सप्ताहे वयं सम्भाषणानि पठितवन्तः. तेषु सम्भाषणेषु पदचतुष्टयं च, एव, अपि इति चत्वारि पदानि अपि वयं ज्ञातवन्तः. गृहपाठरूपेण त्रीणि वाक्यानि रचयन्तु इति दत्तवती. एकमेकं कृत्वा सर्वे श्रावयन्तु अत्र वाक्यानि. प्रथमतया कादम्बरी भगिनी भवती श्रावयतु.
अस्तु. यदि अहं न स्नानं करोमि तर्हि अहं मलिना भवामि. यदि अहं गृहपाठं करोमि तर्हि अहं सन्तोषेण भवामि.
ओ उत्तमं. सन्तुष्टा सन्तुष्टा भवामि इति वदति वा, सन्तोषेण भवामि. अस्तु.
यदि अहं श्रान्ता भवामि तर्हि अहं निद्रां करोमि.
ओ अस्तु. उत्तमम्. अनन्तरं उत्तमम्. अनन्तरम् अत्र हेमा भगिनी भवती श्रावयतु.
आम् भगिनि, यदि अधिकधनं प्राप्तं करोमि तर्हि अहं जगत् प्रवासं कर्तुम् इच्छामि. यदि शिशिरः सन्ति तर्हि जाकेट्
किं वदामः,
संस्कृतभाषायां किं वदामि, जाकेट्, ऐ विल् वेर् जाकेट्.
अत्र अत्र शब्दकोशं शब्दकोशं पश्यति वा भगिनि,
यदि त्रीणि त्रीणि सेण्टेन्स् त्रीणि वाक्यानि तृतीयं वाक्यं वाक्यं यदि अहं अधिकव्यायां करोमि तर्हि स्वास्थ्य अधिक
अत्र अत्र भगिनि अत्र पश्यतु भगिनि भगिनि प्रतिध्वनिः अस्ति भवत्याः दूरवाण्यां दूरवाण्यां किञ्चित् अत्र शृणोतु. भवती पृष्टवती अत्र जाकेट् इत्युक्ते किं वदामः, अत्र चोलः चोलः इत्युक्ते ब्लौस् इति वदामः, परन्तु भवती जाकेट् इति वक्तुम् इच्छति. साधारणतया कञ्चुकः कञ्चुकः अथवा कञ्चुकम् इति वदामः. वदतु भगिनि.
यदि शिशिर ऋतु सन्ति तर्हि अहं चोलाः वेर्
इत्युक्ते
शब्दकोशे नास्ति न
भगिनि, अत्र किञ्चित् हेड्फोन्स् मास्तु. अत्र भवती पृष्टवती यत् शब्दकोशः शब्दकोशः इत्युक्ते डिक्शनरि
शब्दकोशः नास्ति
इत्युक्ते शब्दकोशं न दृष्टवती भवती तदर्थं न ज्ञातवती जाकेट् इत्युक्ते किं वदामः अत्र साधारण ब्लौस् इति वदामश्चेत् चोलः इति वदामः नो चेत् अत्र जाकेट् इति वदामश्चेत् साधारणतया परन्तु सैनिकाः धरन्ति तत्तु तत् कञ्चुकम् इति वदामः परन्तु अत्र चोलः इति वदामश्चेत् प्रायः सम्यक् भवति इति अहं चिन्तयामि
आम् किं वदामि वेर् वेर् चोलः
धरामि
धरामि आम् ओके यदि शिशिर शिशिर ऋतुः अस्ति तर्हि चोलः धरामि
चोलं
धरामि
चोलं
धरामि
उत्तमम् अन्यं वाक्यं वदतु तृतीयं वाक्यं
तृतीयवाक्यं यदि कार्यालयस्य विरामः अस्ति तर्हि चलनचित्रं पश्यामि
विरामः अस्ति तर्हि चलनचित्रं पश्यामि उत्तमम् अनन्तरं
पुस्तकं वाक्य यदि आत्मविश्वासः अस्ति तर्हि सर्वं सुलभं भवति
अस्तु इत्युक्ते एतद् वाक्यम् अभ्यासपुस्तके एव दत्तमस्ति परन्तु अस्माकं कार्यं किम् इत्युक्ते स्वस्य वाक्यैः वदामश्चेत् किञ्चित् अभ्यासः भवति तदर्थं गृहपाठरूपेण स्वस्य वाक्यानि वदामश्चेत् तत्र सम्यक् अभ्यासः भवति उत्तमं भगिनि अनन्तरम् अत्र
अहं त्रीणि वाक्य लिखामि भवती अधिक न लिखामि
उत्तमम् इत्युक्ते भवती केवलं त्रीणि वाक्यानि एव लिखितवती अहं त्रीणि वाक्यानि
एव एव ओके अहं त्रीणि वाक्यानि एव लिखितवती लिखितवती
नो चेत् अलिखम्
अलिखम्
किमर्थम् इत्युक्ते तव तु प्रत्ययान्तरूपं योजयित्वा वदामश्चेत् अहं त्रीणि वाक्यानि एव लिखितवती नो चेत् अहं त्रीणि वाक्यानि अलिखम्
अलिखम्
तथा भवति उत्तमं भगिनि अनन्तरम् अत्र अत्र लक्ष्मी भगिनी भवती श्रावयतु
यदि अद्य मङ्गलवासरः अस्ति तर्हि अहं संस्कृतगृहपाठं करिष्यामि यदि सर्वे योगासनं कुर्वन्ति तर्हि आरोग्यं सम्यक् भवति यदि अद्य भानुवासरः अस्ति तर्हि अहं देवालयं गमिष्यामि
यदि अद्य भानुवासरः वदतु
यदि अद्य भानुवासरः अस्ति तर्हि अहं देवालयं गमिष्यामि
अद्य गमिष्यामि वा अथवा गच्छामि इति
गच्छामि
अस्तु
तावदेव
उत्तमम् उत्तमम् अनन्तरम् अत्र सुबारु महोदय भवान् श्रावयतु
यदि इन्धनम् अस्ति तर्हि कारयानं चलति यदि आरोग्यं सम्यक् अस्ति तर्हि कार्यालयं गच्छामि यदि कार्यालये कार्यं करोमि तर्हि धनं लभ्यति
धनं लभते
धनं लभते
इत्युक्ते अत्र लभ् धातुः आत्मपदि धातुः, अतः लभते.
यदि कार्यालये कार्यं करोमि तर्हि धनं लभते.
अत्र कर्मणि प्रयोगे अपि वाक्यं रचयितुं शक्नुमः. लभ्यते, लभ्यते इति पदं कर्मणि प्रयोगे आगच्छति. लभते, धनं लभते. उत्तमं, तावदेव. उत्तमं. सुचित्रा भगिनी भवती श्रावयतु.
यदि पाकं करोमि तर्हि भोजनं खादिष्यामि. यदि वयं प्रतिदिनं संस्कृतं पाठं पठामः तर्हि वयं सफलं प्राप्नुमः.
पुनः
यदि वयं प्रतिदिनं संस्कृतं पाठं पठामः तर्हि वयं सफलं प्राप्नुमः.
इत्युक्ते सफलतां प्राप्नुमः.
सफलताम्, ओके, सफलताम्. त्रीणि. यदि अद्य कार्यं ध्यानमय करोमि तर्हि भविष्यकालं उज्ज्वलः भविष्यति.
अत्र अत्र पुनः एकवारं वदतु भगिनि.
यदि अद्य कार्यं ध्यानमय करोमि तर्हि भविष्यकालम् उज्ज्वलः भविष्यति.
इत्युक्ते भवती यद् वक्तुमिच्छति इत्युक्ते अद्य अहं कार्यम् एकाग्रतया करोमि तर्हि भविष्यत् उज्ज्वलः भवति. तदेव वा? इत्युक्ते ध्यानमयेन इत्युक्ते एकाग्रतया.
ओ, एकाग्रतया, ओके. धन्यवादः भगिनि. यदि अद्य कार्यम् एकाग्रतया करोमि तर्हि उज्ज्वला भविष्यति, उज्ज्वलः भविष्यति.
कार्यम् एकाग्रतया करोमि चेत् भविष्यत् उज्ज्वलः भवति. उत्तमम्. अनन्तरम्
इदानीं भगिनि. एकं प्रश्नं, ऐ फोगाट् उमाशङ्कर्, नो, मिस्टर् प्रीवियस्, sorry, I forgot his name. He said something about karayanam. Did he use petrol or oil? If he can repeat his sentence, I didn't understand that.
Yadi indanam asti, tarhi karayanam chalati.
Indanam ichukte?
Indanam ichukte, mahodaya.
Indanam ichukte. Fuel.
Fuel, okay. धन्यवाद महोदय. धन्यवाद भगिनि.
यदि इन्धनमस्ति तर्हि यानं चलति. उत्तमम्. अनन्तरं तनय् महोदय, भवान् श्रावयतु.
अस्तु भगिनि. यदि अहं प्रतिदिनं संस्कृतम् एकाग्रतया पठामि तर्हि सम्यक्तया वक्तुं शक्नुयाम्. यदि
उत्तमम्. अत्र पश्यन्तु, सर्वे पश्यन्तु, महोदयः उत्तमरीत्या वाक्यानि लिखितवान्. अत्र पठानि इति उक्तवान्. किमर्थं महोदय, वदतु, सर्वेषां कृते वदतु. पठानि रूपं,
पठानि इति पठ धातोः लोट्लकारस्य उत्तमपुरुष एकवचन रूपम् अस्ति.
सुन्दरम्. उत्तमपुरुष एकवचनरूपम्. अहं पठानि, लोट् लकारः, उत्तमपुरुष एकवचनं. वदतु महोदय अग्रिमं वाक्यं.
यदि अद्य वर्षा न भवेत् तर्हि भारत न्यूजीलैंड देशेन सह क्रीडितुं शक्नुयात्.
भारत न्यूजीलैंड
देशयोः परन्तु तृतीया विभक्तौ प्रयोगं न सम्यक्
तत्रापि द्विवचने वक्तव्यं
अस्तु भारत न्यूजीलैंड देशाभ्यां सह क्रीडितुं शक्नुयात् इति परन्तु भारतः इति कर्ता अस्ति न्यूजीलैंड इति कर्ता न अस्ति तर्हि अहं चिन्तयामि भारतः न्यूजीलैंड देशेन सह क्रीडितुं शक्नुयात् इति न सम्यक्
भारतदेशः न्यूजीलैंड देशेन सह अनन्तरं
यदि भगवद्गीतां शृणुयात् तर्हि सन्तोषम् अनुभवयात्
अत्र अन्तिमं पदं किम्
अनुभवयात् अहं चिन्तयामि अनुभवधातोः विधिलिङ्गकार प्रथमपुरुष एकवचनरूपम् अस्ति अहं परन्तु अहं न जानामि तत् सम्यक् वा न इति
अत्र अनु इति उपसर्गः भू इति धातुः प्रथमतया भू धातोः विधिलिङ्गकाररूपं दृष्ट्वा तदनन्तरं भवेत् अस्ति चेत्
अनुभवेत्
अनु उपसर्गः तदनन्तरं योजयामः
अहं धातोः न ऊहं शक्नोमि तर्हि अहं न जानामि किम् अस्ति
अस्तु महोदय तत्र अनु इति उपसर्गः अपि च भू इति धातुः प्रथमतया भू धातोः रूपं दृष्ट्वा तदनन्तरम् अनु इति योजयामः तस्मात् पूर्वम्
अस्तु भगिनि धन्यवादः भगिनि
अस्तु अनन्तरम् अत्र भावना भगिनी भवती अपि वक्तुं शक्नोति वा अत्र भावना भगिनी अस्ति
एकः प्रश्नः अस्ति अहं विधिलिङ्ग लकार च लोट् लकार प्रयोगं यते अत्र परन्तु अहं न जानामि तत् सम्यक् वा न
महोदय अत्र पश्यतु अत्र अस्माकं वर्गः अस्ति अस्माकं वर्गः प्रारम्भिकस्तरीयवर्गः विधिलिङ्गलकार तस्य विषये चिन्ता मास्तु अग्रे गत्वा वयम् इतोपि ज्ञास्यामः अद्य केवलम् अभ्यासरूपेण यदि तर्हि योजयित्वा वाक्यानि रचयामः विधिलिङ्गलकारः तु अग्रे गत्वा वयं सर्वे मिलित्वा पठिष्यामः तस्मिन् विषये चिन्ता मास्तु
अस्तु भगिनि
अस्तु अनन्तरम् इतोपि येन केनापि न उक्तं वा इदानीं पर्यन्तम् अत्र अन्ये के के सन्ति अत्र नो चेत् अग्रे गच्छेम गते सप्ताहे वयं च एव इति अपि इति पदचतुष्टयं दृष्टवन्तः तेषां विषये किञ्चित् पाठितवन्तः इत्युक्ते एतेषां चतुर्णां पदानां विषये किं ज्ञातव्यम् इति अस्माकं प्रश्नः अद्य अद्यापि केवलं च इति एव अपि इत्येतेषां विषये एव वयम् इतोपि चिन्तनं कुर्मः सर्वे प्रथमतया अत्र प्रथमं करपत्रं पुरतः स्थापयन्तु अहं कानिचन करपत्राणि प्रेषितवती प्रथमं करपत्रं पुरतः स्थापयित्वा तस्मिन् एकं सम्भाषणमस्ति तत्र शीर्षिका अस्ति मम पतिः भोः, तस्मिन् सम्भाषणे एव इति पदं बहुवारम् आगतं. तदर्थं तत् सम्भाषणं पठामश्चेत् वयम् इतोपि ज्ञातुं शक्नुमः एव इति पदं कुत्र आगच्छति, कथं तस्य उपयोगं कुर्मः इति वयम् इतोपि ज्ञातुं शक्नुमः. तदर्थं तत् सम्भाषणं पठामः अधुना. अधुना अत्र सुचित्रा भगिनी अपि च अत्र सुचित्रा भगिनी अपि च कादम्बरी लक्ष्मी भगिनी अत्र सुचित्रा भगिनी अत्र किञ्चित् ध्वनिः अस्ति भवत्याः दूरवाण्यां, किञ्चित् पश्यतु. अत्र किञ्चित् ध्वनिः अस्ति भगिनि.
ऐ जस्ट् म्यूटेड् देन् यू टेल् मी भगिनि.
अधुना शब्दः नास्ति, नो चेत् अधुना अत्र लक्ष्मी भगिनी अपि च कादम्बरी भगिनी अत्र मम पतिः भोः इति सम्भाषणं पठन्तु, किञ्चित् चिन्तनं कुर्मः. लक्ष्मी भगिनी अपि च कादम्बरी भगिनी.
विमला, अश्विनी, पाकः सिद्धः किम्?
अश्विनी, भोः अद्य जलमेव नासीत्, भवत्याः.
विमला, मम अद्य पाककार्यमेव नास्ति, अद्य वयं विवाहं गच्छामः, किन्तु मम पतिः कार्यालयतः न आगतवान् एव.
भवत्याः पुत्री सङ्गीतकक्ष्यां न गच्छति किम्?
सा सङ्गीतं न इच्छति एव. भवत्या किमर्थं सङ्गीतकक्ष्या गमनं पृष्टम्?
अद्य सा किमपि गीतवती, अहं तत् श्रुतवती, सा सम्यक् गायति, अतः अहं चिन्तितवती एषा सङ्गीतकक्ष्यां गच्छति इति.
अश्विनी, अद्य प्रातःकाले एव कोऽपि भवत्या सह सम्भाषणं करोति स्म खलु, कः सः?
अद्य प्रातः अहम् अन्येन केनापि सह सम्भाषणं न कृतवती एव. तदस्तु, भवत्या दृष्टः सः कथम् अस्ति?
सः उन्नतः उपनेत्रधारी, दाम्ली, श्वेतः.
सः एव मम पितः भोः.
पतिः भगिनी, अत्र पतिः भोः.
सः एव मम पतिः भोः.
एवं वा, दूरात् अहम् अन्यः कोऽपि नूतनः इति चिन्तितवती.
अत्र उत्तमरीत्या पठितवन्तौ. अत्र किं दत्तमस्ति इति एकवारं पश्याम. अत्र लक्ष्मी भगिनी भवती वदतु, अत्र एकमेकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः. अत्र अश्विनी इति पदमस्ति, तस्य रूपं किं?
सम्बोधनरूपम्.
उत्तमम्. अश्विनी, पाकः सिद्धः किम् इति उक्तवती, इत्युक्ते किं वदामः? इत्युक्ते भवती पाकं कृतवती वा इति प्रश्नं पृच्छति. विमला, अत्र पाकः इति पदमस्ति, तत्र पच् इति धातुः, अत्र प्रत्ययः अस्ति, विशिष्टप्रत्ययः अस्ति, तदर्थं तत्र पच् धातुतः पाकः इति रूपम् आगच्छति. अत्र विमला अश्विनीं पृच्छति, अश्विनी किम् उत्तरं ददाति वदतु.
अद्य जलमेव नासीत् पाकं न कुर्मः.
तदर्थम् अत्र मम गृहे जलमेव नास्ति, तदर्थम् अहं पाकं न कृतवती इति सा उक्तवती. अत्र जलमेव इति पदमस्ति, तत्र पदद्वयमस्ति, वदतु पदद्वयं किम्?
जलम् एव.
जलम् एव, परन्तु अत्र सन्धिः नास्ति, केवलं वर्णमेलनम् एव, जलं योगः एव. नासीत् इति पदमस्ति, अत्र सन्धिः अस्ति, न योगः आसीत्, सवर्णदीर्घसन्धिः इति वदामः. उत्तमं. अत्र पश्यतु भवत्याः इति लिखितमस्ति, तत्र यदि भवती वक्तुमिच्छति चेत् तत्र वाक्यं पूरयतु, भवत्याः इति दत्तमस्ति, पूरयतु वाक्यं.
भवत्याः नाम किम्?
अश्विनी उक्तवती, उत्तरं दत्तवती यत् अद्य जलमेव नासीत्. वदतु.
भवत्याः गृहं जलम्
अस्ति वा? नो चेत् भवती पाकं कृतवती वा, भवत्याः पाकः समाप्तः वा इति तस्याः उद्देशः सः. भवत्याः गृहे पाकः अभवत् वा इति सा वदति. अनन्तरं विमला किम् उक्तवती, तृतीयं वाक्यं वदतु.
मम अद्य पाककार्यमेव नास्ति.
किमर्थम्?
अहं पाकं न करोमि अद्य. अहं
करोमि. किमर्थं सा न करोति, न कृतवती? अद्य
वयं विवाहः गच्छामः.
उत्तमम्. इत्युक्ते वदतु.
She has to attend a marriage.
तदेव तदेव वदतु. अद्य वयं सर्वे मिलित्वा अत्र विवाहं द्रष्टुं गच्छामः, तदर्थम् अहं पाकं न कृतवती. अनन्तरम् इतोपि किं वदति विमला?
किन्तु मम पतिः कार्यालयतः न आगतवान् एव.
वदतु. अत्र पश्यतु, एव इति पदं योजयित्वा वाक्यं रचितमस्ति. अत्र भवती एव इति योजनेन भवती किम् अवगतवती? किन्तु मम पतिः कार्यालयतः न आगतवान् एव इति सा उक्तवती. तस्य अर्थः कः? एव इत्युक्ते एव इति पदं योजनेन अत्र किम् अभवत्?
बट्
इति वदामश्चेत् किन्तु वदा, किन्तु इत्युक्ते बट् किन्तु अथवा परन्तु. अत्र एव एव अस्ति.
Only is not yet.
इत्युक्ते सः न आगतवान् एव इत्युक्ते निश्चितरूपेण, एम्फसिस् निश्चितरूपेण वदति, किन्तु मम पतिः कार्यालयतः इदानीं पर्यन्तं न आगतवान् एव इति सा उक्तवती. अनन्तरम् अश्विनी किं पृच्छति?
भवत्याः पुत्री सङ्गीतकक्ष्यां न गच्छति किम्?
अत्र कार्यालयतः इति पदमस्ति, कार्यालयतः, तत्र वयं पूर्वं पठितवन्तः कार्यालयतः इति रूपं किं भगिनि वदतु?
चतुर्थीरूपं
न. अत्र सुचित्रा भगिनी भवती वदतु.
पञ्चमी.
पञ्चमी. अत्र तः इति तत्र तस्य नाम अस्ति तहसील् प्रत्ययः, तः इति एकः प्रत्ययः, सप्तसु विभक्तिषु सम्भवति. परन्तु पञ्चम्यां वदामश्चेत् कार्यालयात् अत्र कार्यालयतः इत्यस्मिन् स्थाने कार्यालयात् इति अपि वक्तुं शक्यम्. अत्र भवत्याः पुत्री विभक्तिः का भगिनि? कः वदति अत्र
पञ्चमी?
भवत्याः पुत्री सङ्गीतकक्ष्यां न गच्छति किम्? अत्र भवत्याः भवती शब्दस्य रूपं
षष्टि.
षष्टि, षष्टिरूपं. भवत्याः पुत्री सङ्गीतकक्ष्यां न गच्छति किम् इति सा पृष्टवती. तदा विमला किम् उक्तवती? उत्तरं किं, तस्य उत्तरं किम्?
सा सङ्गीतं न इच्छति एव. भवत्या किमर्थं सङ्गीतकक्ष्या गमनं पृष्टम्?
पृष्टम्. अत्र पूर्वस्मिन् वाक्ये सङ्गीतकक्ष्यां न गच्छति, अत्र कक्ष्याम् इति पदमस्ति. किमर्थं तत्र कक्ष्याम् इति दत्तमस्ति वदतु एकवारं. परन्तु अत्र तत्र पदमस्ति कक्ष्या. वयं सर्वे जानीमः सङ्गीतकक्ष्या, संस्कृतकक्ष्या तथा. परन्तु अत्र कक्ष्याम् इति द्वितीय अविभक्त्यन्तरूपं दत्तमस्ति. किमर्थं वदतु, कः वदति अत्र? तनय महोदय वदतु, अत्र कक्ष्याम् इति किमर्थं दत्तमस्ति?
कक्ष्याम् इति कक्षापदस्य सप्तमी एकवचन रूपम् अस्ति.
न महोदय, अत्र पश्यतु कक्ष्यायाम् इति अस्ति चेत् सप्तमी एकवचनं भवति. परन्तु अत्र किं दत्तमस्ति? सङ्गीतकक्ष्याम् इति दत्तमस्ति. कक्ष्याम् इति रूपं द्वितीयाविभक्त्यन्तरूपम्. द्वितीय यदि पदं द्वितीयाविभक्तौ अस्ति तर्हि किं वदामः? कर्मपदम् इति वदामः. किम् तत्र कर्मपदम् अस्ति तस्मिन् वाक्ये.
परन्तु भगिनि, कक्षा इति पदं लतावत् अस्ति न वा?
अस्ति, लतावत्, लतावत्तेव.
लतापदस्य द्विवचनरूपं लताम् इति भवति. परन्तु कक्ष्याम् इति पदं यकारः दृष्टवान्
अत्र पश्यतु महोदय, पदमस्ति प्रथमाविभक्त्यन्तरूपम् अस्ति कक्ष्या. अत्र कक्ष्याम् इति दत्तमस्ति. कक्ष्याम् इति द्वितीयाविभक्ति एकवचनरूपं. परन्तु भवान् यदुक्तवान् तत्तु सप्तमी एकवचनं कथं भवति? कक्ष्यायाम् इति तत्र इतोपि अन्ययकारः अस्ति
तत्र प्रातिपदिकं कक्ष्या इति भवति.
तत्र प्रथमाविभक्त्यन्तरूपं कक्ष्या, आकारान्तस्त्रीलिङ्गपदम्.
अहं चिन्तितवान् कक्षा इति. अहं चिन्तितवान् कक्षा.
महोदय, अत्र कक्षा अपि अस्ति, कक्ष्या अपि अस्ति. कक्ष्या इत्युक्ते वर्गः. अस्माकं संस्कृतकक्ष्या.
अस्तु, धन्यवादः.
अत्र कक्ष्या इति पदं द्वितीयाविभक्तौ अस्ति. किमर्थं चेत् तत्र तस्मिन् वाक्ये तत्पदं कर्मपदं. किमर्थं चेत् तत्र गच्छति इति क्रियापदमस्ति. गम् धातुः सकर्मकधातुः. अतः तस्मिन् वाक्ये सङ्गीतकक्ष्यां न गच्छति. पुत्री, भवत्याः पुत्री कुत्र न गच्छति? सङ्गीतकक्ष्यां न गच्छति इति अश्विनी उक्तवती. अनन्तरं अत्र विमला भगिनी लक्ष्मी भगिनी भवती वदतु, विमला किम् उत्तरं दत्तवती?
मम पुत्री सङ्गीतं न इच्छति एव सङ्गीतकक्ष्यां न गच्छति.
अत्र वाक्यं पश्यतु, सा इत्युक्ते अत्र मम पुत्री सङ्गीतं न इच्छति एव. न इच्छति एव इत्युक्ते सा एव इत्युक्ते अत्र एम्फाटिक् वर्ड्. अस्माकम् अद्यतनविषयः अस्ति एव. अत्र अस्मिन् वाक्ये एव इति दत्तमस्ति, सा सङ्गीतं न इच्छति एव तदर्थम्. अत्र द्वितीयं वाक्यं किम् इत्युक्ते, भवत्या किमर्थं सङ्गीतकक्ष्यागमनं पृष्टम्? कोऽपि वक्तुं शक्नोति वा अस्मिन् वाक्ये विशेषः अस्ति? कोऽपि वक्तुं शक्नोति वा अत्र, कादम्बरी भगिनी वा अथवा कोऽपि? तने महोदय, भवान् ऊहं कर्तुं शक्नोति वा अत्र वाक्यं किम्?
पुनः वदतु भगिनि, किं कर्तव्यम्
अत्र? वाक्यं भवत्या किमर्थं सङ्गीतकक्ष्यागमनं पृष्टम् इति वाक्यमस्ति. अस्मिन् वाक्ये एकः विशेषः अस्ति. विशेषः इत्युक्ते अत्र प्रयोगस्य विषये. वयं जानीमः एव संस्कृतभाषायां कर्मणि प्रयोगः, कर्तरि प्रयोगः इति प्रयोगद्वयम् अस्ति. इत्युक्ते एक्टिव् वाय्स्.
अस्तु भगिनि, अहम् ऊहं कर्तुं शक्नोमि. अत्र कर्मणि प्रयोगः अस्ति, पृष्टं धातोः तप्रत्ययः अस्ति, तप्रत्ययः कर्मणि प्रत्ययः अस्ति. तस्मात् कारणात् भवत्या इति भवती पदस्य तृतीया एकवचनरूपम् अत्र प्रयोगः अस्ति.
उत्तमम् उत्तमं, तावदेव. इत्युक्ते अत्र प्रच् धातुः अस्ति, प्रच् धातुतः पृष्ट इति क्तान्तरूपम् आगच्छति, परन्तु अत्र कर्मणि प्रयोगे अस्ति वाक्यम्. इत्युक्ते कर्मणि प्रयोगे किं वदामः? त्रीणि एकम् एकम् इति वदामः. इत्युक्ते अत्र कर्तृपदं तृतीयाविभक्तौ भवति, कर्मपदं प्रथमाविभक्तौ भवति, अपि च क्रियापदरूपेण अत्र क्रियापदं नास्ति, परन्तु अत्र क्रियापदम् इव कार्यं करोति क्तान्तरूपम्. अत्र क्रियापदम् इव पृष्टम् इति पदमस्ति, सङ्गीतकक्ष्यागमनं पृष्टम् इत्युक्ते सङ्गीतकक्ष्यागमनम् इति पदस्य विशेषणं पृष्टम्. अत्र विशेषः अस्ति, परन्तु अग्रे गत्वा वयं तस्मिन् विषये इतोपि ज्ञास्यामः अनन्तरम्. अत्र
भगिनी एकः प्रश्नः अस्ति, भवती उक्तवती, भवती यत् उक्तवती त्रीणि एकम् एकम्, अस्य पाणिनेः सूत्रम् अस्ति त्रीणि एकम् एकम् इति?
अस्ति महोदय, अत्र सूत्रमस्ति कर्तृकरणयोः तृतीया.
अस्तु, धन्यवादः.
तत्र सूत्राणि सन्ति, कर्मणि द्वितीया, कर्तृकरणयोः तृतीया इति. अत्र भवत्या इति तृतीया विभक्तौ अस्ति, किमर्थम् इत्युक्ते अत्र भवत्या इति पदं तृतीया विभक्तौ अस्ति, परन्तु कर्तृपदं, तदर्थमेव त्रीणि एकम् एकम्. अनन्तरम् अत्र लक्ष्मी भगिनी भवती वदतु, अत्र अग्रिमं किम् अभवत् अग्रिमभागे?
अश्विनी पृच्छत्, अश्विनी, अद्य सा किमपि गीतवती, अहं तत् श्रुतवती, सा सम्यक् गायति. शी हर्ड समवन सिंगिंग.
इत्युक्ते अत्र अश्विनी वदति, अद्य भवत्याः पुत्री किमपि गीतवती, अहं श्रुतवती. अत्र पश्यन्तु सर्वे, वयं पूर्वमेव क्तवतु प्रत्ययान्तरूपाणि पठितवन्तः. गीतवती, श्रुतवती, पठितवती इति पदानि वयं पूर्वमेव पठितवन्तः, भूतकालरूपाणि. अपि च वाक्ये विशेषणानि भवन्ति. अहं श्रुतवती, सा गीतवती. अत्र तवत् प्रत्ययान्तानां विषये एकः विशेषवार्ता अस्ति. विशेषवार्ता तत् किम् इत्युक्ते, वार्ताकाल इत्युक्ते, अत्र तवत् प्रत्ययान्तरूपाणि योजयामश्चेत् तत्र पुरुषभेदः नास्ति, केवलं लिङ्गभेदः अपि च वचनभेदः दृश्यते. कथम्? अहं श्रुतवती इति वक्तुं शक्नुमः, तथा एव सा श्रुतवती इति अपि समीचीनम्. इत्युक्ते प्रथमपुरुषौ, प्रथमपुरुष अपि च मध्यमपुरुष, उत्तमपुरुष, त्रिषु पुरुषेषु अपि तवत्वन्तरूपाणि योजयित्वा वाक्यं रचयितुं शक्नुमः. तदर्थमेव सा गीतवती, अहं श्रुतवती तथा अत्र दत्तमस्ति. भवत्याः पुत्री किमपि गीतवती, अहं श्रुतवती, सा सम्यक् गायति. तदर्थम् अहं चिन्तितवती यत् एषा सङ्गीतकक्षां गच्छति इति अहं चिन्तितवती. अत्र पश्यन्तु, वयम् अत्र इति अपि पदम् अपि दत्तमस्ति, इति योजयित्वा वाक्यं रचितमस्ति. अनन्तरं भगिनी पठतु.
अश्विनी, अद्य प्रातःकाले एव कोऽपि भवत्या सह सम्भाषणं करोति स्म खलु? सः
अत्र अश्विनी, अद्य प्रातःकाले एव कोऽपि भवत्या सह सम्भाषणं करोति स्म खलु? अत्र प्रातःकाले एव इत्युक्ते किम्?
इन् द मार्निङ्ग् इट्सेल्फ़्, एम्फाटिक्.
इन् द मार्निङ्ग् इट्सेल्फ़्, अद्य प्रातःकाले एव कोऽपि. सर्वे पश्यन्तु, अहं पूर्वमेव उक्तवती परन्तु पुनः एकवारं वदामि. कोऽपि इति अत्र पदमस्ति, अत्र सन्धित्रयमस्ति. अत्र त्रयः सन्धयः कार्यं कुर्वन्ति. अत्र सन्धयः कः इत्युक्ते, सन्धयः के इत्युक्ते निसर्गसन्धिः, गुणसन्धिः अपि च पूर्वरूपसन्धिः. अत्र पदद्वयं किं? कः प्लस् अपि, कोऽपि इति पदमस्ति. अत्र सा उक्तवती प्रातःकाले एव कोऽपि भवत्या सह. भगिनी वदतु, भवत्या सह इति पदमस्ति, तस्मिन् विषये किञ्चित् वदतु, जानाति चेत्. लक्ष्मी भगिनी, भवत्या इति रूपं किम्?
इट् इस् थर्ड्, तृतीयविभक्ति.
सुन्दरं, तृतीयविभक्ति. साधारणतया तृतीयविभक्तेः तत्र तस्य उपयोगं कथं कदा कुर्मः इत्युक्ते, कारणतृतीया, उपकरणं, यदि उपकरणमस्ति चेत् अहं लेखन्या लिखामि, अहम् अङ्कन्या लिखामि, अथवा अहं रेल् यानेन गच्छामि, द्विचक्रिकया गच्छामि, तथा. इत्युक्ते अत्र साधारणतया उपकरणं तृतीयाविभक्तौ योजयामश्चेत् तत्र उपकरणम् इति रूपेण तृतीयाविभक्तेः उपयोगं कुर्मः. परन्तु अत्र यथा भवती उक्तवती तथा एव अत्र तृतीयाविभक्ति एव, परन्तु अत्र किञ्चित् वैशिष्ट्यमस्ति. वैशिष्ट्यं किम् इत्युक्ते, सः इति पदम् उपपदम् इति वदामः. तदर्थम् अत्र उपपदतृतीया इति वदामः. इत्युक्ते तृतीयाविभक्तिः एव, परन्तु तत्र कारकविभक्तिः नास्ति, परन्तु उपपदतृतीयाविभक्तिः इति वदामः. किमर्थम् इत्युक्ते, सः विना तादृशरीत्या बहूनि अन्यानि पदानि सन्ति, तत्र उपपदं योजनेन तत्र विभक्तिः तथा सम्भवति. अत्र सः इति योजनेन तत्र पदं तृतीयाविभक्तिः विभक्तिं स्वीकरोति. भवत्या सह सम्भाषणं करोति स्म खलु. स्म इति अपि नूतनं पदं, भवती जानाति वा? वदतु स्म इत्यस्मिन् विषये.
अहं
नूतनं पदं स्म, कोऽपि जानाति वा? अत्र कादम्बरी भगिनी वक्तुं शक्नोति वा स्म? स्म तने महोदय वदतु.
स्म यदि वाक्यस्य अन्ते अस्ति तस्य अर्थः अस्ति तस्य स्म इति पदस्य प्रयोजनेन वाक्यः भूतकाले भवति.
सुन्दरं सुन्दरं, तदेव इत्युक्ते अत्र केवलं स्म इति योजनेन तत्र भूतकालार्थं सम्भवति. इत्युक्ते अत्र करोति स्म, सम्भाषणं करोति स्म इति पदमस्ति. तत् अन्यरूपेण वक्तुमिच्छामश्चेत् सम्भाषणम् अकरोत् इति अपि भवितुमर्हति. नो चेत् भवत्या सह सम्भाषणं कृतवती खलु इति अपि वक्तुं शक्नुमः. अत्र स्म इति योजनेन करोति इति पदस्य अनन्तरं स्म योजनेन भूतकालार्थं सम्भवति तत्र. अत्र विमला पृष्टवती भवत्या सह सम्भाषणं करोति स्म यः कोऽपि, सः कः इति सा पृष्टवती. अश्विनी किं वदति तदा? लक्ष्मी भगिनी वदतु.
अद्य प्रातः अहम् अन्येन केनापि सह सम्भाषणं न कृतवती एव. तदस्तु भवत्या दृष्ट सः कथम् अस्ति.
अद्य प्रातः अहम् अन्येन केनापि सह सम्भाषणं न कृतवती एव इति सा उक्तवती. तदनन्तरं तदस्तु इति दत्तमस्ति. अत्र तत् इति पदमस्ति. तत् योगः अस्तु, तदस्तु. अग्रे गत्वा वयं पठिष्यामः तत्र तत् तद् किमर्थं कथं भवति. तत्र सन्धिः अस्ति, तस्य नाम अस्ति जस्त्वसन्धिः. तकारस्य स्थाने दकारः आगतः. तत्र तस्य नाम जस्त्वसन्धिः इति वदामः. अपि च अत्र पश्यतु भगिनि, भवत्या दृष्टः सः कथमस्ति इति वाक्यमस्ति. अत्रापि वाक्यं कर्मणि प्रयोगे अस्ति. भवत्या दृष्टः सः कथमस्ति, अत्रापि कर्मणि प्रयोगे वाक्यं दत्तमस्ति. भवती तत् भवती यं दृष्टवती सः कथमस्ति इति अर्थः. तस्य अर्थः भवत्याः दृष्टः. दृष्टः इति पदमपि क्तान्तरूपं. भवती यं दृष्टवती सः कथमस्ति. अनन्तरं सः कथमस्ति, तस्याः उत्तरं किं?
सः उन्नतः उपनेत्रधारी.
उपनेत्रधारी श्वेतः. वदतु स्वस्य वाक्यैः.
उपनेत्रधारी श्वेतः अस्ति.
इत्युक्ते उपनेत्रधारी इत्युक्ते
वन् वित् ग्लासस्.
उपनेत्राणि धरति. अनन्तरं सः श्वेतः अपि च उन्नतः. उन्नतः इत्युक्ते
टाल्.
अस्तु, भवती अवगतवती. अग्रिमं वाक्यं पठतु.
सः एव मम पतिः भोः.
इत्युक्ते सा अद्य प्रातःकाले केनापि सह सम्भाषणं करोति. केन सह सम्भाषणं कृतवती? तस्याः सः तस्याः पतिः. सः एव मम पतिः भोः इति सा उक्तवती. अन्ततो गत्वा किं किं वदति?
एवं वा, दूरात् अन्यः कोऽपि नूतनः इति चिन्तितवती. She thought him to be somebody else.
इत्युक्ते एवं वा भवति इत्युक्ते किं भगिनि? एवं वा,
इस् दट् रैट्?
इस् इट् सो?
इस् इट् सो, या.
एवं वा, तथा वा, इत्थं वा इति वदति. एवं वा, दूरात् अहं दृष्टवती, तदर्थम् अहं चिन्तितवती यत् सः कोऽपि अन्यः इति अहं चिन्तितवती. अत्र अस्मिन् सम्भाषणे बहुवारम् एव इति पदम् आगतं, तदर्थं भवन्तः सर्वे अवगतवन्तः इति अहं चिन्तयामि. अत्र एव इति सम्भाषणं. अनन्तरम् अधुना वयम् अग्रिमं करपत्रं दृष्ट्वा किञ्चित् तत्र किं दत्तमस्ति इति पश्याम. अत्र हेमा भगिनी अग्रजा, अपि च सुब्बरं महोदय भवान् करोतु अग्रजा रविः.
कुत्र करपत्रं
भगिनि? अत्र द्वितीयं करपत्रमस्ति. क्षम्यताम्.
आम्, अहं प्रथमं वदामि.
अत्र पश्यन्तु, अत्र अस्मिन् करपत्रे इति पदं बहुवारं योजितमस्ति, तदर्थं एतत् करपत्रं पठामः. अस्मिन् सम्भाषणे रविः नाम्ना एकः पुरुषः अस्ति, सः एकदा तस्य अग्रजायाः गृहं गतवान्. अग्रजा इत्युक्ते किं भगिनि?
नाम अस्ति
रविः. एकवारं तस्य अग्रजायाः गृहं गतवान्. अनन्तरं तस्य अग्रजया सह सम्भाषणं करोति अत्र. रवेः अग्रजयोः मध्ये सम्भाषणमस्ति, द्वयोर्मध्ये सम्भाषणं पठित्वा पठामश्चेत् किञ्चित् इतोपि अवगन्तुं शक्नुमः इति पदं कथं कुत्र सम्भवति. पठतु.
अग्रजा: हो हो, भवान् वा? आगच्छतु आगच्छतु.
आम्, अहमेव. मां कः इति चिन्तितवती भवती?
भवन्तं कः महामार्जरः इति चिन्तवती? निःशब्दम् अकस्मात् भवान् आगतवान् खलु?
असत्यं मा वदतु, असत्यं मा वदतु. भवती मां महाचोरः इति, अपरिचितः, दुष्टः इति चिन्तितवती ननु?
नैव, भवन्तं महाव्याघ्रः इति चिन्तितवती.
भोः, तदर्थं कोपः मास्तु, अहमपि विनोदं कृतवान्. भवतु, सन्ध्यः मां भवत्याः प्रियानुजः इति चिन्तयतु.
एवं विनोदशीलः इत्येव मम गृहे भवान् बहुप्रियः अभवत्, परं भवतः अहंकारः, गर्वः.
अग्रजे, अद्य भवत्याः किम् अभवत् इति पदे पदे कुपिता भवति खलु?
सत्यं भोः, अग्रजा इति आवृत्तः इति वा भवतः प्रीतिः अस्ति वा? एकं पत्रं लिखितवान् किम्? अन्ततो गत्वा एकं दूरवाणीम्?
क्षम्यतां, पादयोः पतामि आवृतः
आवृत्तः महोदय अत्र आवृत्तः
आवृत्तः आवृत्तः कदा आगच्छति भवती एव मां रक्षतु भवतीं शरणं गच्छामि
इत्युक्ते अत्र सः रविः अग्रजया सह सम्भाषणं करोति अत्र अधुना वयम् एकमेकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः व्याकरणांशानां परिशीलनं किञ्चित् कुर्मः अत्र भगिनी हेमा भगिनी भवती वक्तुं शक्नोति वा आगच्छतु आगच्छतु भोः भवान् वा इत्युक्ते
हो भवान् वा आगच्छतु आगच्छतु
आगच्छतु लकारः कः
रविः आगच्छतु
सुबारु महोदय भवान् वदतु अत्र लकारः कः आगच्छतु आगच्छतु
लोट् लकारः
लोट् लकारः उत्तमम् अत्र
किमर्थं भवति लोट् लकारः
अत्र वयं पूर्वं वयम् अभ्यासपुस्तके पूर्वं पठितवन्तः भगिनी अत्र आगच्छतु आगच्छति इति लट् लकाररूपम् आगच्छतु इति लोट् लकाररूपं लकारः लोट् लकारः इत्युक्ते आज्ञार्थे वा अथवा प्रार्थनार्थे वा तस्य उपयोगं कुर्मः
ओके
यदि अन्यं आज्ञां कुर्मः वा नो चेत् प्रार्थनार्थे तस्य उपयोगः भवति अत्र अग्रजा रविं पश्यति रविं दृष्ट्वा सा वदति भवान् वा आगच्छतु आगच्छतु इति उक्तवती तस्य उत्तरं किं रविः किं वदति
मम
आम् अहमेव मां कः इति चिन्तितवती भवती मां कः अत्र किम् अवगतवती भवती मां तस्य रूपं किं कः वदति माम् इति पदस्य रूपं लक्ष्मी भगिनी वदतु
षष्टिविभक्ति
मम इति षष्टिरूपं तनय महोदय वदतु
माम् इति अस्मत् पदस्य द्वितीया विभक्ति एकवचनरूपं भवति
सुन्दरं सुन्दरं अत्र रविः वदति मां कः माम् इति यथा तने महोदयः उक्तवान् अस्मत् शब्दः अहं शब्दस्य द्वितीया विभक्त्यन्तरूपम् एकवचने भवती भवती मां दृष्ट्वा मां कः इति चिन्तितवती इति चिन्तितवती मां कः इति चिन्तितवती इति सः पुनः प्रश्नं पृष्टवान् अनन्तरं सा किम् उत्तरं ददाति
भवन्तम् एकः महामार्जरः इति चिन्तवती
अहं भवन्तं दृष्ट्वा एकः महामार्जारः इति चिन्तितवती महामार्जारः वदतु भगिनि महामार्जारः इत्युक्ते
महामार्जरः महामार्जरः
तस्य अर्थः तस्य अर्थः कः
केट् मार्जर केट् महामार्जरः टैगर्
इत्युक्ते अत्र मार्जारः इत्युक्ते बिडालः बिडालः इति
वदामः
बिडालः अत्र महामार्जारः इति उक्तवती तदर्थम् अत्र व्याघ्रः इति वक्तुं शक्नुमः अत्र भवन्तं दृष्ट्वा केवलं तत्र केवलं हास्यरूपेण वदति सा भवन्तं दृष्ट्वा एकः महामार्जारः इति अहं
चिन्तितवती
साधारणतया किमर्थं तथा सा उक्तवती इत्युक्ते साधारणतया मार्जारः निःशब्दतया इतस्ततः सञ्चरति गृहे यदा गृहे यदा मार्जारः आगच्छति मार्जारः साधारणतया निःशब्द किमपि शब्दम् अकृत्वा चलति
जनरलि
केट् नो वेन् इट् इस् वाकिङ्ग् इट् वोण्ट् मेक् एनी सौण्ड्
सौण्ड्
तदर्थमेव भवन्तं दृष्ट्वा अहं चिन्तितवती यत् महामार्जारः अत्र आगतः इति अहं चिन्तितवती. निःशब्दः अकस्मात् भवान् आगतवान् खलु. अत्र पश्यन्तु निःशब्दः इति पदमस्ति. अत्रापि अत्र पश्यतु निःशब्दः इति पदमस्ति. पदं प्रथमाविभक्तौ निःशब्दः.
ओके ओके ओके.
अत्र अत्र निःशब्दः इति पदं तत्र सन्धिः अस्ति. अत्र विसर्गसन्धिः इति वदामः, परन्तु अत्र विकल्पेन सन्धिः भूत्वा विसर्गस्थाने षकारः अपि आगन्तुं शक्नोति. नो चेत् यथा अत्र दत्तमस्ति, विसर्गः यथावत् तिष्ठति, तत्र सूत्रमस्ति वाशरि इति सूत्रेण तत्र विसर्गः यथावत् तिष्ठति. तत्र रूपद्वयं सम्भवति, तदर्थम् अत्र केवलं विसर्गसहितरूपं दत्तमस्ति. निःशब्दः अकस्मात् भवान् आगतवान् खलु. अकस्मात् इत्युक्ते किम्?
एक्सिडेण्टलि, सडन्लि.
सडन्लि इत्युक्ते तत्र संस्कृतभाषायाम् एकम् अन्यं पदमस्ति अकस्मात् इत्यस्य कृते, काककालीयवत्.
काककालीयवत्
काकतालीयवत् भवान् आगतवान् खलु गृहे. तदा रविः किं वदति? तत्र चतुर्थं वाक्यं
अहं वदामि. असत्यम् असत्यं मा वदतु भवती मां महाचोरः इति. अपरिचितः दृष्टः इति चिन्तितवती ननु.
इत्युक्ते किम्?
असत्यं मा वदतु भवती मां महाचोरः इति. महाचोरः बिग् थीफ्. रविः वदतु, अग्रजा वदामि, वदिष्य अग्रजा वदति रविः महामार्जरः. रविः
उत्तरं दत्तवान्
असत्यं मा वदतु. भवती मां महाचोरः इति.
भवती मां दृष्ट्वा महाचोरः, अपरिचितः, दुष्टः इति चिन्तितवती वा? इति चिन्तितवती खलु इति सः वदति. अत्र तदा अग्रजा किं वदति तं प्रति?
पुनः एकवारं प्रश्न पृच्छामि.
अत्र रविः हास्यरूपेण वदति, भगिनी भवती मां दृष्ट्वा मां महाचोरः, अपरिचितः, दुष्टः इति भवती चिन्तितवती वा इति सः पृष्टवान्. तदा अग्रजा किं वदति तं रविं प्रति?
नैव, भवन्तं महाव्याघ्रः इति चिन्तितवती.
भवन्तं दृष्ट्वा महाव्याघ्रः इति चिन्तितवती अहं. सा अपि हास्यगुलिकां तत्र स्थापयति, वदति हास्यरूपेण. अत्र नैव इति पदमस्ति. अत्र नैव इत्यस्मिन् पदे पदद्वयमस्ति, न एव न योगः एव नैव इति भवति. अत्र वृद्धिसन्धिः इति वदामः. अत्र वृद्धिसन्धिः भवति. अनन्तरम् अत्र अस्मिन् वाक्ये अपि इति इति पदं योजितमस्ति. तदा भोः तदर्थं कोपः मास्तु. वदतु, पठतु.
भोः तदर्थं कोपः मास्तु, अहमपि विनोदं कृतवान्. भवतु सद्यः मां भवत्याः प्रियानुजः इति चिन्तयतु.
अत्र भवती वदति मां दृष्ट्वा महाव्याघ्रः इति चिन्तितवती, परन्तु अधुना कोपः मास्तु भगिनि, कोपः मास्तु, केवलम् अहं विनोदार्थम् अहमपि विनोदं कृतवान्. अत्र पदमस्ति विनोदः, विनोदं कृतवान् इति किमर्थं दत्तमस्ति इत्युक्ते अत्र क्रू धातुः सकर्मकधातुः, तदर्थम् अस्मिन् वाक्ये कर्मपदं सम्भवति. अतः सा उक्तवती अहम, रविः वदति अहमपि केवलं विनोदं कृतवान्. अधुना केवलं भवति भवत्याः प्रिय अनुजः इति चिन्तयतु.
किमर्थं सद्यः मां सद्यः मां?
अत्र पश्यतु भगिनि, असद्य सद्य इति सद्यः इति पदं दत्तमस्ति. कोऽपि वदति वा सद्यः इत्युक्ते किं? सुब्बरमहोदय वक्तुं शक्नोति वा? तनय् महोदय.
अहं चिन्तयामि सद्यः इति अव्ययपदम् अस्ति. अहं दृष्टवान् तस्य अर्थः रीसेण्ट्लि इति भवति, परन्तु अत्र रीसेण्ट्लि अस्ति वा न इति न जानामि.
अस्तु महोदय, सुन्दररीत्या उक्तवान्, सम्यक् एव. अत्र सद्यः इत्युक्ते भवन्तः श्रुतवन्तः एव बहूनि पर्यायवाचकपदानि सन्ति तस्य कृते. इदानीं सद्यः इत्युक्ते इदानीम् अधुना, नो चेत् अत्र साम्प्रतं सम्प्रति, एतानि सर्वाणि पदानि पर्यायवाचकपदानि सद्यः इत्यस्य कृते. सद्यः इत्युक्ते नौ,
अधुना,
रीसेण्ट् अथवा अधुना इति पदात् एव आधुनिक इति पदम् आगतम्. अत्र सद्यः इत्युक्ते नौ, अधुना अथवा इदानीं. परन्तु सः वदति, किं वदति, अधुना मां भवत्याः प्रिय अनुजः इति चिन्तयतु, महाव्याघ्रः चोरः दुष्टः इति मां मा चिन्तयतु, केवलं प्रिय अनुजः इति चिन्तयतु. तावत् पर्याप्तम्. अत्र अनुजः इत्युक्ते भवती किम् अवगतवती?
लिटिल् ब्रदर्, यङ्गर् ब्रदर्.
अग्रिमं वाक्यं पठतु.
एवं विनोदशीलः इत्येव मम गृहे भवान् बहु प्रियः अभवत्, परम् अभवत् अहङ्कारः गर्वः. एवं विनोदशीलः, प्रश्नः नास्ति, एवं विनोदशीलः इत्येव मम गृहे भवान् बहु प्रियः.
भवान् सर्वदा इत्युक्ते तस्य अर्थः कः इत्युक्ते भवान् सदा सर्वदा एतादृशरीत्या एव सर्वदा विनोदं कृतवान् आसीत्, तदर्थमेव भवान् बहु प्रियः मम गृहे, बहु प्रियः अभवत् सर्वे. वदतु, भवती वदतु, अत्र किम् अवगतवती अस्मिन् वाक्यस्य विषये?
I don't understand the question.
अत्र वाक्यस्य विषये भवती किम् अवगतवती, तत् किमपि वदतु भगिनि. अत्र भवान् एवं विनोदशील, एवं विनोदशीलः इत्येव मम गृहे भवान् बहु प्रियः अभवत् इत्युक्ते भवती किम् अवगतवती?
किम् अवगतवती?
अत्र वार्ताद्वयमस्ति, there are two points here. भवान् सर्वदा विनोदशीलः, विनोदं करोति, तदर्थमेव मम गृहे भवान् बहु प्रियः अभवत्. तत्तु एकं वाक्यम्.
इत्येव सन्धि अस्ति.
वदतु, सन्धेः नाम किम्?
इति एव.
सन्धेः नाम किम्? कः वदति? तने महोदय वदतु.
इति योगः एव अत्र यणसन्धिः भवति.
यण्सन्धिः भवति अभवत् अत्र.
किं सन्धि?
यण्सन्धि यणादेशः.
यणादेशः
इकः इकः स्थाने यण् आदेशः भवति. तत्र सूत्रमस्ति इको यणजि इति सूत्रमस्ति. सः वदति भवान् विनोदशीलः इति कृत्वा मम गृहे सर्वे इच्छन्ति. अपि च भवतः अहङ्कारः गर्वः इति तत्र सा कुप्यति. इत्युक्ते तस्याः कोपः अभवत्. किमर्थमित्युक्ते सः बहुकालानन्तरं न आगतवान्. तदर्थमेव सा कुपिता अस्ति. अग्रजा कुपिता अस्ति. तदर्थं सा तथा उक्तवती. रविः किं वदति अधुना?
अग्रजे अद्य भवत्याः किम् अभवत् इति पदे पदे कुपिता भवति खलु. अग्रजे सम्बोधन वाचक अस्ति.
सम्बोधनरूपम्
अद्य भवत्याः किम् अभवत् इति.
किमर्थम् एतादृशरीत्या उक्तवती भवती? किमर्थं भवती कुपिता भवती?
टुडे वै आर् यु लैक् दिस्? वै आर् यु लैक् दिस् टुडे? वै आर् यु सेयिङ्ग् दिस्? किम् अभवत् इति. वै आर् यु लैक् दिस् टुडे?
अपि च
पदे पदे कुपिता भवति खलु. एव्री स्टेप् यु आर् गोयिङ्ग् टु बि एङ्ग्री अट् मी.
उत्तमं. भवती कुपिता भवति खलु. अत्र कुपिता इति पदम् अपि क्तान्तरूपम्. अत्र कुप्यति कुप् धातुः अस्ति. कुप्यति इति लट्लकाररूपं. कुप्यति पदे 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 इति पदं तत्र तदपि अव्ययम् इति वदामः. अव्ययम् अव्ययम् इत्युक्ते तस्य लिङ्गवचनविभक्तिः नास्ति. अनन्तरम् अग्रजा किं वदति अधुना?
सत्यं भोः अग्रजा इति आवुत्तः इति वा भवतः प्रीतिः प्रीतिः अस्ति वा? एकं पत्रं लिखितवान् किम्? अन्ततो गत्वा एकां दूरवाणीं. रविः पत्रं न लिखितवान्, दूरवाणीं न कृतवान्, तथा अग्रजा पदे पदे कुपिता भवति.
तदर्थं सा कुपिता अभवत्.
सा कुपिता अभवत्.
उत्तमम्. अत्र आवुत्तः इति नूतनं पदमस्ति. तस्य अर्थः कः?
आवुत्तः इति
उत्तमम्. उत्तमम् इत्युक्ते अत्र किं वदामः संस्कृतभाषायाम्? अग्रजायाः पतिः. अग्रजायाः पतिः आवुत्तः. अनन्तरम् अन्ततो गत्वा रविः किं वदति?
क्षम्यतां क्षम्यतां पादयोः पतामि. आवुत्तः कदा आगच्छति? भवती वा भवती एव मां रक्षतु. भवतीं शरणं गच्छामि.
उत्तमम् इत्युक्ते वदतु भगिनि तस्मिन् विषये.
रविः ब्रदर् इन् लॉ आवुत्तः
रविः अभयं याचितवान्. अत्र क्षम्यतां क्षम्यताम् इति पदं दत्तमस्ति. अत्र भवन्तः अग्रे गत्वा पठन्ति एव, परन्तु अत्र क्षम्यताम् इति पदमस्ति संस्कृतभाषायाम्, अत्र क्षमते इति आत्मनेपदिरूपम् अस्ति, अपि च कर्मणि लट् इति वदामः, क्षम्यते 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 इति पदं कर्मणि लट् रूपं, क्षम्यताम् इति कर्मणि लोट् इति वदामः, कर्मणि लोट् सः वदति
आगच्छतु 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 अग्रे
आगच्छतु आगच्छतु इति कर्तरि लोट्
कर्तरि लोट्
अत्र क्षम्यताम् इति पदं कर्मणि लोट् इति वदामः अत्र सः रविः वदति क्षम्यतां भगिनी पादयोः पतामि पादयोः वदतु भगिनि पादयोः विभक्तिः वचनं किं
पादयोः न जानामि सप्तमी सप्तमी पादयोः
सप्तमी वचनं किम्
द्विवचन
सुन्दरं द्विवचनं
द्विवचनं
पादयोः पतामि पतति भवन्तः जानन्ति एव पतति इति पदमस्ति परन्तु अत्र उत्तमपुरुषे दत्तमस्ति अहं पतामि कुत्र पतामि पादयोः पतामि
पादयोः पतामि रविः पादयोः पतामि
रविः वदति पादयोः पतामि क्षम्यताम् आवृत्तः कदा आगच्छति भवती एव मां रक्षतु अपि च भवतीं शरणं गच्छामि भवन्तः सर्वे श्रुतवन्तः एव त्रीणि वाक्यानि वयं सर्वे श्रुतवन्तः एव बुद्धं शरणं गच्छामि धर्मं शरणं गच्छामि सङ्घं शरणं गच्छामि तथा एव अत्र किं दत्तमस्ति भवतीं शरणं गच्छामि
शरणं गच्छामि
सः किमर्थं तथा उक्तवान्
आवृत्तः कूपित् अस्ति सन्ति
आवृत्तः अपि कुपितः भवति चेत् तदर्थमेव इदानीं पर्यन्तं भवान् किमर्थं न आगतवान् इति आवृत्तः चिन्तयति तदर्थं वदतु
आवृत्तः कुपित् भवति तथा रविः वदामि भवती अग्रजे वदामि भवती एवं मां रक्षतु
तदर्थमेव सः अग्रजां वदति भवत्याः पादयोः पतामि क्षम्यतां भगिनी तथा मा चिन्तयतु अन्यथा मा चिन्तयतु इति सः वदति उत्तमम् इत्युक्ते इदं सम्भाषणं पठित्वा वयम् इति पदं कथं तस्य उपयोगं कुर्मः इति वयं किञ्चित् इतोपि ज्ञातवन्तः इति भाति इति अहं चिन्तयामि सर्वे
इति अत्र
पश्यतु भगिनि इति कथं लिखितमस्ति कुत्र लिखितमस्ति किमर्थं लिखितमस्ति भवती एव पठतु वदतु
अन्ते अस्ति सत्यं भोः अग्रजा इति आवृत्तः इति
तथा न वदामः इति पदस्य उपयोगं कुत्र भवति उपयोगः कुत्र भवति अत्र तनय् महोदय वदतु स्वस्य वाक्यैः इति पदं कुत्र
कुत्र पुनः वदतु भगिनि
इति पदस्य उपयोगं कथं कुर्मः अथवा कुत्र भवति तस्य उपयोगः
इति पदस्य उपयोगः दिस् इन्दि अहं वक्तुं शक्नोमि मम नाम तनयः इति यदा अहं वदामि तर्हि इति पदस्य अर्थः अस्ति माय नेम् इस् तनय दिस् मीन्स् दिस् इस् माय नेम् लैक् तावत्
उत्तमम् उत्तमं मम नाम तनयः इति अहं वदामि तथा एव अत्र कादम्बरी भगिनी भवती वदतु इति इत्यस्मिन् विषये किञ्चित् वदतु इति भवती किम् अवगतवती इति इति पदस्य विषये कादम्बरी भगिनी वदति वा कादम्बरी भगिनी
प्रश्नः
वदतु इति इति पदस्य विषये भवती किम् अवगतवती वदतु
इति लैक् दिस्
अत्र अत्र अहम् अत्र अत्र सम्भाषणं पश्यन्तु पुनः एकवारं भवन्तम् एकः महामार्जारः इति अहं चिन्तितवती तथा एव मां कः इति चिन्तितवती वा इत्युक्ते अत्र इन्वर्टेड् कामास् तत्र वाक्यानि सन्ति वाक्यम् अत्र इन्वर्टेड् कामास् अस्ति तदनन्तरम् इति वदामः यदा कोऽपि सूक्तिः अस्ति चेत् श्रद्धावान् लभते ज्ञानम् इति श्रीकृष्णः भगवद्गीतायाम् उक्तवान् तथा एव बुद्धं शरणं गच्छामि इति सिद्धार्थः उक्तवान् इति तथा वक्तव्यम् अत्र सुब्बारु महोदय भवान् किम् अवगतवान् इति पदस्य विषये वदतु अवगतं वा भवान् अवगतवान् वा अत्र
अवगतवान् परन्तु वक्तुं न शक्नोमि
अस्तु अस्तु सुचित्रा भगिनी भवती वदतु इत्यस्मिन् विषये भवती किम् अवगतवती
डैरेक्ट् स्पीच् यहाँ पर आम् अहमेव मां कः सो दट्स् डैरेक्ट्लि रवि सेङ्ग् लैक् यु नो this is what you are thinking like you said within inverted like if you're saying a direct thing like you know saying this person said this so in that context like you know you're saying like bhagini uktavati vayam sarve kakshaya samyak kalam agamishyama सो इति भगिनी उक्तवती समथिङ्ग् लैक्
दट् उत्तमम् इत्युक्ते अहम् अद्य कक्षां न गच्छामि इति भगिनी उक्तवती अत्र एकं वाक्यं वदामः तदनन्तरं कः वदति इति वयं वक्तुमिच्छामः चेत् सः अद्य कार्यालयं न गच्छति इति तनय् महोदयः उक्तवान् किमपि अत्र तनय् महोदयः उक्तवान् यत् अद्य सः अहं कार्यालयं न गच्छामि किमपि अद्य मम आरोग्यं सम्यक् नास्ति इति लक्ष्मीभगिनी उक्तवती तथा वक्तव्यम् उत्तमम् अत्र लक्ष्मीभगिनी भवती किम् अवगतवती वदतु इत्यस्मिन् विषये
thus like in quotes whatever
ekam vakyam vadatu iti yojayitva
um
अहं सम्यक् अवगतवती इति लक्ष्मी भगिनी उक्तवती. इति वदतु.
अहं कार्यालयं न गमिष्यामि इति अहं उक्तवान्.
उक्तवती स्त्रीलिङ्गे इत्युक्ते नो चेत् तत्र कोऽपि अन्यः वदति चेत् कोऽपि अन्यः मम पिता अद्य कार्यालयं न गच्छामि अहं कार्यालयं न गच्छामि इति मम पिता उक्तवान् सः वक्तव्यम्. उत्तमम्. अनन्तरं वयं शीघ्रम् अत्र तृतीयं करपत्रमपि शीघ्रं समापयामः. तदर्थं सर्वे तृतीयं करपत्रं पश्यन्तु. तस्मिन् करपत्रे अपि च नैव इति पदद्वयं योजितमस्ति. तत् सम्भाषणं कुर्मः अधुना. अत्र कः करोति? अत्र तनय् महोदय, भवान् वदतु. पतिः तनय् महोदय पतिः. अनन्तरं पत्नी कः करोति? लक्ष्मी भगिनी भवती करोतु पत्नी.
पत्नी ह्यः वयं विद्यालयस्य वार्षिकोत्सवं गतवत्यः.
कार्यक्रमः कथम् आसीत्?
सम्यक् आसीत्, परं किञ्चित् दीर्घः कार्यक्रमः आसीत्.
के कार्यक्रमा आसन्?
नूतनानां कार्यक्रमाणाम् आयोजनं कृतवन्तः. राजस्थानीगीतस्य नृत्यं बालिकानाम् आसीत्. बालकानां हिन्दीगीतस्य नृत्यम् आसीत्.
केवलं नृत्यम् आसीत् किम्?
नैव, शिक्षकाणां संस्कृतनाटकम् आसीत्. ते सम्यक् न कृतवन्तः. जनाः अपि अर्थम् अज्ञात्वा कोलाहलं कृतवन्तः.
बालकानां नाटकं न आसीत् वा?
नैव, आरम्भे एव युवतीनां स्वागतनृत्यम् आसीत्. अपरः कार्यक्रमः अतिविशिष्टः.
कः कार्यक्रमः?
पञ्चभूतानां मेलनम् इति. प्रथमं भूमिः, आकाशः, पवनः, पावकः, जलम् एतेषां प्रत्यक् नृत्यम्. अनन्तरं सर्वेषां मिलित्वा नृत्यं, मध्ये मध्ये सम्भाषणम् इत्युक्ते नृत्यरूपकम् आसीत्.
कार्यक्रमस्तु सम्यक् आसीत्, तथैव अलङ्काराः अपि आसन् किम्?
दीपानाम् अलङ्कारः, ध्वनिवर्धकानां, पुष्पाणां, फलानाम् इत्यादीनां बहुविधाः अलङ्कारः आसन्.
इत्युक्ते वार्षिकोत्सवस्य वर्णनम् अत्र दत्तमस्ति. वार्षिकोत्सववर्णनं न एव नैव इति भवति. नैव अपि सम्यक् इति त्रीणि पदानि अस्मिन् सम्भाषणे दत्तानि. अत्र भगिनी प्रथमं वाक्यमस्ति, अत्र ह्यः वयं विद्यालयस्य वार्षिकोत्सवं गतवत्यः. अत्र गतवत्यः इति किमर्थम्? अत्र गतवत्यः इति पदं दत्तमस्ति. वयं पठितवन्तः पूर्वं भूतकालरूपाणि, तवत्वन्तरूपाणां विषये. गतवती इति पदस्य बहुवचनरूपं गतवत्यः. अत्र पत्नी वदति, ह्यः वयं विद्यालयस्य वार्षिकोत्सवं गतवत्यः. अत्र गतवत्यः इत्युक्ते सा एका एव गतवती वा, नो चेत् अन्ये अपि गतवन्तः वा, गतवत्यः वा अन्याः महिलाः? अत्र पश्यतु गतवत्यः. तनय् महोदय वक्तुं शक्नोति वा गतवत्यः इति पदं किमर्थम्?
गतवत्यः इति पदं बहुवचने अस्ति, पत्नी स्वयम् एव न गतवती, सा तस्याः सखायां सह सखाभिः सह गतवती, तस्मात् कारणात् गतवत्यः बहुवचने रूपम् अत्र प्रयोगः अस्ति.
उत्तमम्. इत्युक्ते पत्नी तस्याः सखीभिः सह गतवती, तस्याः पतिभिः सखीभिः सह सा गतवती. अतः एव वयं सर्वे मम सख्याः सह अहं वार्षिकोत्सवं द्रष्टुं गतवती, अहं गतवती, वयं सर्वे गतवत्यः. कदा कदा गतवत्यः ते ताः सर्वाः? ह्यः. ह्यः इत्युक्ते किं भगिनि, लक्ष्मी भगिनि?
यस्टर्डे.
ह्यः वयं वार्षिकोत्सवं द्रष्टुं गतवत्यः. तदा पतिः वदति कार्यक्रमः कथमासीत्, कथमासीत् वदतु भगिनि.
सम्यक् आसीत्, परं किञ्चित् दीर्घः कार्यक्रमः आसीत्.
वदतु.
इट् वास् गुड् बट् इट् वास् लाङ्ग्.
कार्यक्रमः कीदृशः?
दीर्घः आसीत्.
कार्यक्रमः दीर्घः आसीत्, परन्तु कार्यक्रमे तत्र के कार्यक्रमाः आसन्? अत्र पश्यन्तु कार्यक्रमाः सर्वे, तत्र विसर्गं द्रष्टुं शक्नुवन्ति वा? अत्र विसर्गः अस्ति वा, द्रष्टुं शक्नोति वा भगिनी? अत्र विसर्गः अस्ति वा नास्ति वा? न दृश्यते वा? न दृश्यते. अस्तु, अत्र विसर्गः अस्ति चेत् अत्र तत्र सन्धिः नास्ति इति वदामः. यदि विसर्गः नास्ति चेत् तत्र सन्धिः अभवत्. विसर्गसन्धेः विषये वयं पश्यामश्चेत् तत्र विसर्गस्य लोपः भवति. कार्यक्रमाः योगः आसन्, तत्र सन्धिं कुर्मः चेत् कार्यक्रमा आसन् इति भवति, विसर्गः लुप्यते. तत्र किं वदामः, चतुर्थं तत्र तृतीयं पाठसूत्रम् इति वदामः. एकं सूत्रमस्ति, विसर्गसन्धेः सूत्रमस्ति, तेन सूत्रेण अत्र विसर्गस्य लोपः भवति. तदर्थमेव विसर्गं लिखामश्चेत् तदपि समीचीनं रूपं, विसर्गं लिखामश्चेदपि समीचीनं रूपं. तत्र सन्धिः भवति चेत् विसर्गः लुप्यते तत्र. अत्र सा उक्त, पतिः पृष्टवान् यत् वार्षिकोत्सवे के कार्यक्रमाः आसन् इति पृष्टवान्. तदा किं वदति सा?
नूतनानां कार्यक्रमाणाम् आयोजनं कृतवन्तः. राजस्थानगीतस्य नृत्यं, हिन्दीगीतस्य नृत्यम् आसीत्.
अत्र गीतस्य अथवा नृत्यस्य गीतस्य तस्य रूपं किं भगिनि वदतु? भवती जानाति एव, वदतु.
षष्टिविभक्ति.
षष्टिविभक्ति, अपि च नूतनानां कार्यक्रमाणाम् आयोजनं, नूतनानां कार्यक्रमाणां वदतु. विभक्तिः का, वचनं किं?
वचन बहुवचन.
तनय् महोदय वदतु अत्र.
नूतनानाम् इति नूतनपदस्य षष्टिविभक्ति बहुवचनरूपम् अस्ति. नूतन अत्र कार्यक्रमस्य विशेषण अस्ति, तस्मात् कारणात् सः षष्टिविभक्तौ बहुवचनरूपे अस्ति.
उत्तमम् 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 इत्युक्ते कार्यक्रमः इति पदस्य विशेषणं नूतन, कार्यक्रम इति पदस्य विशेषणं नूतन, अपि च पदद्वयमपि विशेषणम् अस्ति. विशेषणं भवति चेत् साधारणतया लिङ्गवचनविभक्तिः समानम् इत्युक्ते किं वदामः, समानाधिकरण्यम् अथवा समानविभक्तिकत्वं. विशेष्यपदस्य यत् वचनं यद् लिङ्गं या विभक्तिः भवति तथा तदेव विशेषणशब्दस्यापि भवति. तत्र श्लोकः अपि अस्ति, यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि इति श्लोकः अस्ति. तेन कारणेन अत्र नूतनानां कार्यक्रमाणाम् आयोजनम् इति वाक्यमस्ति. आयोजनम् इति पदं ल्युडन्तपदम् इति वदामः. अनन्तरं कार्यक्रमाणाम् इति पदं दत्तमस्ति, तत्र नकारः अस्ति, किमर्थं महोदय वदतु?
कार्यक्रमाणाम् इति पदे रकारः भवति, रकारः आसीत्, पाणिनेः सूत्रम् आसीत् रसाभ्यां नो नः इति सूत्रं वदति. यदि समानपदे रकारः भवति तत् अनन्तरं नकारः नकारः अपि भवति, तस्य नकारः इति भवितुम् अर्हति.
इत्युक्ते एकस्मिन् एव पदे रेफः वा मूर्धन्यशकारः वा अथवा कृष्णरुकारः वा अस्ति, अपि च तस्मिन् एव पदे दन्त्यनकारः अस्ति चेत् सः दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः भवति. तत्र सूत्रमस्ति यथा भवान् उक्तवान्, रसाभ्यां नोणः समानपदे अपि च अट्कुप्वानुं व्यवायेति इति सूत्रमपि अस्ति. तेन ताभ्यां सूत्राभ्याम् अत्र नकारः मूर्धन्यणकारः आगतः. अनन्तरम् अत्र किम् अभवत् लक्ष्मीभगिनी, भवती अनन्तरं किम् अभवत् वदतु?
केवलं नृत्यम् आसीत् किं, नैव शिक्षकाणां संस्कृतनाटकम् आसीत्, ते सम्यक् न कृतवन्तः, जनाः अपि अर्थम् अज्ञात्वा लोककोलाहलं कृतवन्तः.
अत्र अस्मिन् वाक्ये किं दत्तमस्ति, भवती किम् अवगतवती? अत्र एतत् अत्र वाक्यद्वयमस्ति, एतत् वाक्यद्वयं पठित्वा भवती किम् अवगतवती वदतु.
शिक्षकाणां संस्कृतनाटकम् आसीत् परन्तु सम्यक् न आसीत्. सो
किमर्थं सम्यक् नास्ति, न आसीत्?
Nobody could understand what was happening and there was a lot of confusion, kolahalam.
इत्युक्ते जनाः अपि अर्थम् अज्ञात्वा वयम् अग्रे गत्वा पठिष्यामः. ज्ञात्वा इति पदं कृतवान्तरूपम्. जनाः तत्र कार्यक्रमं दृष्टवन्तः परन्तु ते न किमपि न अवगतवन्तः. किमर्थं चेत् तत्र ते सम्यक् रीत्या न कृतवन्तः, तदर्थं ते अज्ञात्वा इत्युक्ते ते सम्यक् रीत्या न अवगतवन्तः इति कृत्वा सर्वे जनाः कोलाहलं कृतवन्तः. कोलाहलः इत्युक्ते भगिनि वदतु.
कन्फ्यूजन्
कोलाहलं कृतवन्तः जनाः. किमर्थम्, तने महोदय वदतु.
जनाः नाटकस्य अर्थं न ज्ञातुं शक्नुवन्तः. शक्तवन्तः तेन कारणेन ते परस्परात् वार्तां वार्तां कृतवन्तः. तस्मात् कारणात् कोलाहलम् अभवत्.
कोलाहलः अभवत्.
कोलाहलः अभवत्.
अत्र पदमस्ति कोलाहलः, परन्तु अत्र कृतवन्तः क्रू धातुः अस्ति इति कारणात् सकर्मकप्रयोगः अभवत्. कोलाहलं कृतवन्तः. अत्र यथा भवान् पूर्वम् उक्तवान् अत्र शिक्षकाणाम् इति पदमस्ति, अत्रापि अणकारः अस्ति शिक्षकाणां. किमर्थम्
अत्र शिक्षा इति पदे मूर्धन्यशकारस्य मूर्धन्यशकारः अभवत्, तस्मात् कारणात् नकारस्य णकारः दन्त्यनकारस्य मूर्धन्य णकारम् अभवत्.
उत्तमम्. इत्युक्ते अत्र सर्वे पश्यन्तु, अत्र शिक्षकाणाम् अत्र णत्वम् अस्ति. किमर्थं चेत् अत्र क्ष इत्यस्मिन् पदे अक्षरे क्ष इति संयुक्ताक्षरं, तस्मिन् ककारः अस्ति अपि च षकारः अस्ति. ककारषकारयोः मेलनेन क्ष इति पदम् इति अक्षरम् आगतं, संयुक्ताक्षरम्. अत्र निमित्तमस्ति, षकारः निमित्तमस्ति एकस्मिन् एव पदे. षकारः निमित्तं दन्त्यनकारः, अपि च बाधकवर्णाः न सन्ति. इत्युक्ते निमित्त नकारयोः निमित्तनकारयोः मध्ये तत्र बाधकवर्णाः न सन्ति, तदर्थं तत्र दन्त्यनकारः मूर्धन्यणकारः अभवत् इति अत्र विषयः. अनन्तरं भवानेव वदतु महोदय, अत्र किम् अभवत्? बालकानां नाटकं न आसीत् वा? वदतु
भगिनी. एकः प्रश्नः अस्ति, पूर्वस्मिन् वाक्ये अज्ञात्वा इति दृश्यते, परन्तु अहं चिन्तयामि अ इति उपसर्गः अस्ति, परन्तु तस्मात् कारणात् ल्यबन्तं रूपं न अभवत्.
न महोदय, अत्र पश्यतु, संस्कृतभाषायां द्वाविंशतिः उपसर्गाः सन्ति, परन्तु तेषु द्वाविंशतिषु उपसर्गेषु आ इति नास्ति. दीर्घ आकारः उपसर्गः आङ् इति उपसर्गः अस्ति, परन्तु अ ह्रस्व अकारः उपसर्गः नास्ति.
अस्तु केवलं
अत्र यदि वयम् अत्र उपसर्गः इति एकः अन्यः पाठः अपि अस्ति, तेषु द्वाविंशतिषु उपसर्गेषु अकारः अन्यतमः नास्ति, अकारः नास्ति, तदर्थम् अत्र ल्यवन्तरूपं न आगच्छति. केवलं व्यतिरेकार्थं सूचयितुम् अत्र आ इति योजितमस्ति. यथा वयं जानीमः सत्यम् असत्यम् तथा वदामः, अत्र अकारः उपसर्गः नास्ति, ह्रस्व अकारः. अनन्तरम् अग्रिमं वाक्यं वदतु, शीघ्रं समापयामः.
अग्रिमं वाक्यमस्ति, शिक्षकाणां तु नाटकं कृतवन्तः, परन्तु बालकानां नाटकं न अभवत् इति पतिः पत्नीं अपृच्छत्. नैव, अग्रिमम् अपि वदतु भगिनी.
अत्र नैव इत्युक्ते भवान् किम् अवगतवान्? अत्र न एव इत्युक्ते साधारणतया आङ्ग्लभाषायां किं वदामः? नैव. आङ्ग्लभाषाम् अनुवादं करोतु.
नैव, नो वित् एम्फेसिस्.
तदेव इत्युक्ते नो, किं वदामः नो इत्युक्ते तत्र नैव आरम्भे एव युवतीनां स्वागतनृत्यम् आसीत्। अपरः कार्यक्रमः तु अतिविशिष्टः। सः कार्यक्रमः कः वदतु, अत्र पत्नीं किं वदति विशिष्टकार्यक्रमाणां विषये?
सः कार्यक्रमस्य कार्यक्रमः अस्ति पञ्चभूतानां मेलनम् इति। प्रथमः भूमिः, आकाशः, पवनः, पावकः, जलम्, एतेषां पञ्चभूतानां पृथक् नृत्यम् अभवत्। अनन्तरं सर्वेषां मिलित्वा नृत्यं पूर्वः प्रत्येक भूतस्य सेपरेट् नृत्यम् आसीत्। तद् अनन्तरं सर्वे मिलित्वा नृत्यं कुर्वन्तः
कृतवन्तः अथवा अकुर्वन्।
अस्तु,
वदतु।
नृत्यस्य मध्ये मध्ये सम्भाषणम् अपि अभवत्।
सम्भाषणम् अभवत्, उत्तमम्। इत्युक्ते अत्र पञ्चभूतानां मेलनम्, पञ्चभूतानां मेलनम् इति तस्य तत्र नृत्यस्य नाम अस्ति इति। पञ्चभूतानां मेलनम् इति तस्य नाम, नाटकस्य नाम अथवा नृत्यस्य नाम। अत्र वयं जानीमः पञ्चभूतानि कानि इति। वयं जानीमः भूमिः, तस्य अन्यनाम अस्ति पृथिवी, मही इति वदामः, अपि च आकाशः, अनन्तरं पवनः। पवनः इत्युक्ते वायुः अथवा मरुत् इति वदामः, अपि च पावकः। पावकः इत्युक्ते अग्निः। जलं, जलं तस्य अन्यनाम अस्ति आपः। संस्कृतभाषायाम् आपः इति पदं सर्वदा बहुवचनान्तम् एव। जलम् इत्यस्मिन् अर्थे आपः इति अन्यं पदमस्ति। इत्युक्ते ते किं कृतवन्तः, पञ्चभूतानां मेलनं नाम्ना एकं नृत्यं कृतवन्तः। प्रथमतया पृथक् पृथक्, अत्र पृथक् यथा तनय् महोदयः उक्तवान्, सपरेट् सपरेट्, पृथक् इत्युक्ते सपरेट्। सर्वे पश्यन्तु अत्र पृथक् इत्यस्य भावः एव पार्थक्यम् इति वदामः। आङ्ग्लभाषायां पार्थक्यम् इत्युक्ते डिफ्रेन्स्। यदा कदापि वयं डिफ्रेन्स् इति वक्तुमिच्छामश्चेत् किं वदामः, पार्थक्यं किं, तयोर्मध्ये भेदः कः, तथा एव तयोर्मध्ये पार्थक्यं किं वदतु इति वक्तव्यम्। अत्र पृथक् इति पदस्य भावः पार्थक्यम्। ते प्रथमतया पृथक् नृत्यं कृतवन्तः, अनन्तरं सर्वे मिलित्वा नृत्यरूपकं कृतवन्तः। किमर्थं रूपकम् इति उक्तवान् इत्युक्ते, नृत्यरूपके किं भवति, मध्ये मध्ये सम्भाषणानि अपि सन्ति, तदर्थं नृत्यरूपकम् आसीत्। उत्तमम्। तत्र लक्ष्मी भगिनी भवती वदतु, अत्र किम् अभवत् अधुना?
कार्यक्रमस्तु सम्यक् आसीत्, तदैव अलङ्कारः अपि आसन्। किं दीपानाम् अलङ्कारः, ध्वनिवर्धकानां, पुष्पाणां, फलानाम् इत्यादीनां बहुविधाः अलङ्कारः आसन्।
इत्युक्ते कार्यक्रमः तु यदा पत्नी उक्तवती तदा पतिः अवगतवान्, सः वदति कार्यक्रमः तु सम्यक् आसीत्, परन्तु अलङ्काराः कथमासीत्, कथमासन् इति सः उक्तवान्। अत्र पश्यतु, अलङ्काराः इति पदं विशेषरीत्या लिखितमस्ति। वयं पूर्वमेव चर्चितवन्तः अस्मिन् विषये, अत्र अलङ्काराः इत्यस्मिन् पदे परसवर्णसन्धिः अत्र अस्ति। अनन्तरं तदा पत्नी किं वदति, अलङ्काराः कथमासन्?
दीपानां, पुष्पाणां, फलानाम् इत्यादीनां बहुविधाः अलङ्काराः आसन्।
अत्र अस्मिन् वाक्ये बहूनि पदानि षष्टिविभक्ति बहुवचने सन्ति। भगिनी भवती वदतु, चिनोतु, चयनं करोतु।
दीपानां, दीपानां, ध्वनिवर्धकानां, पुष्पाणां, फलानाम् इत्यादीनां
उत्तमम् उत्तमम् इत्युक्ते दीपानां ध्वनिवर्धकानां पुष्पाणां फलानां तथा इत्युक्ते अस्मिन् सम्भाषणे बहून् विषयान् वयं ज्ञातवन्तः, न केवलम् अपि च नैव, बहुवारं षष्टिविभक्तबहुवचनान्तरूपाणि अपि आगतानि. अहं चिन्तयामि सर्वे अवगतवन्तः एतत् सम्भाषणम् इति अहं चिन्तयामि. अत्र कथा अस्ति अग्रिमे सप्ताहे पुनः एकवारम् अत्र मिलित्वा अत्र मूर्खाः शुकाः इति कथां पठिष्यामः. अधुना कालातीतः अभवत्. सर्वेषां धन्यवादः, नमस्कारः.
धन्यवादः भगिनी.
धन्यवादः भगिनी.
धन्यवादः.